वन्दे वाञ्छितलाभाय चन्दार्धकृतशेखराम् वृषारूढाम् शूलधराम् शैलपुत्रीम् यशस्विनीम्। आध्यात्मिकदृष्ट्या अस्माकम् चेतनायाः आभ्यन्तरे तमोगुणम् रजोगुणम् सत्त्वगुणम् च व्याप्तानि सन्तीति। प्रकृत्या सह अस्याः चेतनायाः उत्सवः नवरात्र्युत्सवः उच्यते। अस्तु तावत् एतैः मङ्गलवचनैः सह अहम् निधिः तिवारी कार्यक्रमस्योद्घोषिका नमामि सर्वेभ्यः श्रोतृजनेभ्यः। देवी समुपासकाः मे प्रियाः श्रोतारः, देव्याः स्तुतिपरकम् एकम् सुभाषितम् समाश्रित्य आयाति अस्मदीयः समकक्षः जतिनशर्मा। आयान्तु सर्वे पवित्रावगाहनम् कुर्मः एतस्मिन् सुभाषितप्रवाहे।
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थै स्मृता मतिमतीव शुभां ददासि दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्थचित्ता।
प्रियमित्राणि, अधुना प्रस्तूयते प्रसङ्गप्रभागः, यो हि उच्चार्यते अस्मदीयेन सहयोगिना नरेन्द्रदत्त सेमवालेन।
ध्येयं वदन्ति शिवमेव हि के चिदन्ये शक्तिं गणेशमपरे तु दिवाकरं वै रूपेस्तु तैरपि विभासि यत त्वमेव तस्मात् त्वमेव शरणं मम दीनबन्धो।
शोभनं तावत् प्रियाः बान्धवाः, समायातः सम्प्रति साप्ताहिकी वार्ताः, या हि प्रस्तौति अस्मदीया सहयोगिनी सुषमा कुमारी।
लोकसभायाम् अप्रवासन विदेशी नागरिक अधिनियम विधेयकः प्रवर्तमान वर्षाय पारितः। गृहमन्त्रिणा अमितशाहेन प्रतिपादितं यत् भारतदेशः जगति सर्वाधिक न्यून जनसंख्या युतानाम् अल्पसंख्यकानां प्रति सम्मानेन सह निवासाय सुरक्षित स्थानम् विद्यते। संसदि वित्त विधेयकः अभिसंस्कृतः। केन्द्रीय आय व्यय पत्रक प्रस्तुतीकरणाय अनुमोदन प्रक्रिया प्रपूरिता। प्रशासनं सहकारी आधारित सहकार टैक्सी सेवा प्रारप्स्यति। रक्षामन्त्रालयेन नाग प्रक्षेपास्त्र प्रणाली वाहनानां क्रयणे 2500 कोटि रूप्यकात्मकीय अनुबन्धपत्रे हस्ताक्षरितम्। पाकिस्तानदेशे बलूचिस्तान प्रान्ते संदिग्ध विद्रोहिणः, ग्वादर जनपदे पंजाब प्रान्ते 6 जनाः मारितः। खेलो इंडिया पैरा क्रीडानां नवदिल्ल्यां भव्य समापनं सञ्जातमस्ति।
ज्ञान पिपासवः मे सुहृद् श्रोतारः, अधुना ख्यातलब्धे ज्ञान विज्ञान प्रभागे संस्कृत भाषा संवर्धनाय अहर्निशं कार्यं सम्पादयन् एषः विनायक हेगडे महोदयः उपस्थितोऽस्ति। अनेन सह रुचिकरं संवादं साधयति निधिः झा।
अभिवादये। अद्य ज्ञान विज्ञान प्रभागे निवेदिताः सन्ति संस्कृतानुरागिणः, शिक्षकाः, संस्कृत भारत्याः कार्यकर्तारश्च विनायक हेगडे महाभागाः भवताम् प्रणति पुरस्सरम् इयमहम् निधिः झाः स्वागतम् व्याचष्टे। महोदयाः, देहलीनगरे 1,8,000 शिबिराणाम् आयोजनमिति उपक्रमः श्लाघनीयः अस्ति। अस्य महतः आन्दोलनस्य कार्यान्वयनम् कथम्, तथा च अयम् कार्यक्रमः कथम् जनेषु संस्कृतस्य पुनरुत्थानम् दैनन्दिन प्रयोगे च प्रभावयति?
अस्य प्रश्नस्य अहम् 3 भागेषु उत्तरम् दातुम् प्रयतिष्ये. भवत्या उक्तं यत् अयम् उपक्रमः श्लाघनीयः इति. वयम् एतत् श्लाघनीय उपक्रमेषु न गणयामः, अपि तु करणीयेषु अथवा अनुकरणीयेषु कार्येषु एतस्य गणनं कुर्मः. यतः एतत् कार्यं बहुकालात् पूर्वमेव करणीयमासीत्, किन्तु इदानीं सः कालः आगतः, सः सङ्कल्पः साकारीकर्तुम् इदानीम् अवसरः प्राप्तः अस्ति. यतः जनानां हृदयेषु पूर्वतः एव संस्कृतम् अस्ति, जनानां हृदयेषु पुनः रक्तस्य कणे कणे संस्कृतशब्दानां पुनः संस्कृतसंस्काराणां प्रवेशः अस्ति पूर्वतः. अतः तस्य केवलं वयम् इदानीम् एतद् सम्भाषण आन्दोलनरूपेण तस्य जागरणं केवलं कुर्वन्तः स्मः तावदेव. अतः अनुकरणीयः अयम् उपक्रमः. द्वितीयप्रश्नस्य द्वितीयः भागः यः आसीत्, अस्य कार्यान्वयनं कथमिति. वस्तुतः एतत् उत्तरं दीर्घम् एव भविष्यति, तथापि संक्षेपेण प्रयासं करोमि. कस्यापि कार्यक्रमस्य कार्यान्वयनाय तत्र महतः परिश्रमस्य पुनः पूर्वयोजनायाः आवश्यकता भवति. यतः समकाले एव 1008 शिबिराणि चालयितुं तावन्तः शिक्षकाः, तावन्तः संयोजकाः, तावतां जनानां योजनम्, एतत् सर्वमपि प्रचारकार्यं, शिक्षणकार्यं, पुनः शिक्षकाणां शिक्षणं कर्तुं तादृशाः शिक्षकाः अपेक्षिताः, तदर्थं तेषां चयनं कृत्वा तेषाम् अभ्यासं कारयित्वा एवं कृत्वा बहु महत् कार्यमस्ति. एतत् तत् क्रमशः एकैकम् इदानीं क्रियमाणमस्ति, कतिचन कृतानि च. एवमेव एतद् प्रायशः अयं कार्यक्रमः पूर्णतां गमिष्यति. पुनश्च जनानां संस्कृतस्य पुनरुत्थानं दैनन्दिनप्रयोगञ्च कथं भविष्यति इति. अस्माकं कार्यक्रमः एव तादृशः अस्ति. वयं सामान्यभाषा इत्युक्ते वार्तालापस्य प्रतिदिनं यत् सम्भाषणं वयं वार्तालापं कुर्मः, संवादं कुर्मः, तया भाषया यथा प्रयोगाः भवन्ति भाषायाः, तादृशीं भाषामेव अत्र पाठयामः. साक्षात् जनभाषा एव अत्र पाठ्यते. यतः जनाः विद्यालयेषु, विश्वविद्यालयेषु अथवा महाविद्यालयेषु संस्कृतं पठन्ति एव, किन्तु अत्र तदेव पाठनं न भवति. तद्विना अन्यदपि सामान्यदैनन्दिन वयं प्रयोगं यथा कुर्मः, दैनन्दिनभाषायां प्रयोगाः यथा क्रियन्ते, तथा तादृशप्रयोगाः अत्र बोध्यन्ते, पाठ्यन्ते. एवं तेषां वस्तुतः अतीव उत्साहेन जनाः एतस्मिन् सहभागं स्वीकरिष्यन्ति इति अहं विश्वसिमि.
बहु समीचीनं महोदयाः. विभिन्नेषु स्थलेषु एतादृशानां शिबिराणां प्रबन्धने अनन्यप्रतिसन्धयः भवन्त्येव. अत्र मुख्याः शैक्षणिकव्यवस्था बाधाः काः? संस्कृतभारती कथं तासां निवारणं करोति?
हा, समीचीनम्. अत्र किं भवति, एतस्य कार्यस्य परिचयः जनानां नास्ति इति कारणेन, बहवः सहजतया न अवगच्छन्ति इति कारणेन ते विरोधं कुर्वन्ति, न न अत्र भवितुं नार्हति इति एकः विषयः. द्वितीयम्, अत्र यदि भविष्यति अस्माकं कार्यक्रमस्थानस्य अपि तत्र किञ्चित् धनं दातव्यं भवति, बुकिङ्ग् करणीयम् इत्यादि इत्यादि एतादृशम् उक्त्वा कथञ्चित् निवारयन्ति. यदा वयं साक्षात् पाठयित्वा प्रात्यक्षिकं दर्शयित्वा यदा तेषां स्वपि वार्तालापं कुर्मः तदा ते आनन्देन अङ्गीकुर्वन्ति. एवं कतिचन बाधाः स्वयमेव अपगताः भवन्ति. पुनश्च केषाञ्चित् मनसि एवम् अस्ति, संस्कृतं पाठयन्ति, एतत् वयं पठितवन्तः पूर्वमेव, विद्यालयेषु पठितवन्तः, महाविद्यालयेषु पठितवन्तः इत्यादि इत्यादि केचन कथयन्ति. तदा वयं संस्कृतेन उक्त्वा ये संयोजकाः अथवा शिक्षकाः कार्यकर्तारः तत्र जनानां सम्मुखे गच्छन्ति सम्पर्कार्थं प्रचारार्थं, तदा साक्षात् प्रात्यक्षिकं दर्शयन्ति कथं बोधनं पाठनं भवति अस्मिन् शिबिरे इति. तदा ते हा एतत्तु किञ्चित् भिन्नम् अस्ति, पृथक् अस्ति, अत्र एतादृश यदि कक्षाः भवन्ति एतादृश्यः, निश्चयेन वयमपि संस्कृतं ज्ञातुं शक्नुमः, संस्कृतेन वार्तालापं कर्तुं समर्थाः भविष्यामः. ते अङ्गीकृत्य अस्माकं कृते तत्र स्थानस्य कल्पनां कुर्वन्ति अथवा स्थानं कल्पयन्ति, पुनश्च जनानां योजनार्थं प्रयासं कुर्वन्ति, पारिवारिकजनान् अपि आह्वातुं ते प्रयासं कुर्वन्ति, मित्राणि अपि ते आह्वयन्ति इत्यादीनि. ते एव स्वयमेव सहयोगं कृत्वा अग्रे अस्माकं कार्यक्रमः यथा सफला भवेत् तदर्थं ते साहाय्यं कृत्वा अस्माकं कार्यस्य वर्धनार्थम् अथवा कार्यस्य प्रचारार्थं ते अपि स्वयं ते सम्मिलिताः भवन्ति.
साधु, इदानीं दशदिनेषु जनाः संस्कृतम् अधिगच्छन्ति इति तु निश्चप्रचम्, परन्तु शिबिरानन्तरं कथं लोकः संस्कृतेन सह संलग्नः भवति, संस्कृतस्य नित्यप्रवाहे कथं ते आत्मानं व्यापारयन्ति?
सम्यक् एव प्रश्नः कृतः. वस्तुतः पश्यतु, यदा कदापि कस्यापि कार्यस्य अथवा कार्यक्रमस्य वा सफलता तदनन्तरस्य योजनानुसारमेव भवति. कार्यक्रमपश्चात् योजना का, तस्य उद्देश्यं किम् आसीत्, अग्रे का योजना इति यदा पूर्वं विचिन्त्य कस्यापि कार्यक्रमस्य अथवा कार्यस्य स्वीकरणं भवति तदा तत् सम्यक्तया सफलतया भविष्यत्येव, तस्य सफलता तस्य उद्देश्यं पूर्णतां गच्छति. अतः संस्कृतभारत्या एवं चिन्तितं, यदा दशदिनानां प्रशिक्षणं जनानां भविष्यति, सम्भाषणस्य आरम्भः भवति, तदनन्तरं कथं किम् इति प्रश्नः. वस्तुतः एतत् पश्चात् यत्र यत्र शिबिराणि भवन्ति, वयं नगरशः वा जिल्लाशः वा तस्य अनुवर्तिशिक्षणस्य अपि कार्यक्रमं कार्यं स्वीकृतवन्तः. अर्थात् शिबिराणां पश्चात् सप्ताहे एकं दिनं वा दिनद्वयं वा एकघण्टानिमित्तं तेषामेव मेलनं कृत्वा तेषां कृते पठितस्य पुनरावृत्तिं कारयामः, पुनश्च अग्रिमं शिक्षणमपि, यथा सम्भाषणमपि ते न विस्मरेयुः तथा पुनरावृत्तिम् अपि कारयामः. एषा व्यवस्था अपि अस्ति, एतादृशं बहुत्र चलति एव पूर्वतः अपि. एतादृशं यत्र यत्र तादृशशिबिराणि भवन्ति अनन्तरं साप्ताहिकमेलनम् इति नाम्ना सप्ताहे एकवारम् अथवा द्विवारं वा एकघण्टानिमित्तं तेषामेव समावेशः भवति. तदा सहजतया जनाः लोकाः यत् पठितवन्तः शिबिरेषु तस्य निश्चयेन अहं चिन्तयामि गृहेषु तस्य अनुपालनं कुर्वन्ति, गृहभाषां रूपेण एतत् संस्कृतं गृहभाषारूपेण स्वीकृत्य संस्कृतेन सम्भाषणं कुर्वन्ति. एवमपि प्रयासः यद् अस्माकम् इदानीं प्रचलति यत् परिवारस्य अधिकांशसदस्याः यावन्तः शक्यन्ते तावताम् अपि आह्वानं करणीयं. तेषां कक्षायां यदि आगमनं भविष्यति तर्हि परस्परं पठितस्य अंशस्य ते अनुवर्तनं पुनः पुनरावर्तनं गृहेषु अभ्यासं कर्तुं शक्नुवन्ति. सहैव प्रयासः तादृशः एव प्रयासः प्रचलति. अतः अहं चिन्तयामि नित्यप्रवाहे संस्कृतस्य अग्रे योजनाय सम्यक् एषा योजना कार्यं करिष्यति अथवा सहायतां करिष्यति इति अहं चिन्तयामि, भावयामि.
धन्यवादाः महोदयः.
नमस्कारः. अहं सामान्यरूपेण एतस्य उत्तरं दातुं प्रयासं कृतवान्, अहं न जाने भवत्याः प्रश्नस्य उत्तराणि प्राप्तानि वा न वा इति. न प्राप्तानि अग्रे क्रमशः शिबिराभियानसमये सर्वेषामपि प्रश्नानाम् उत्तराणि प्राप्यन्ते एव. धन्यवादः.
विद्वद्वाणीम् अवधार्य आनन्दिताः स्मः. विदुषे, स्वामूल्य समय प्रदानाय धन्यवादाः.
नमस्करोमि. संस्कृतार्थं पुनः मेलिष्यामः. मातृभूमिः भारतं, मातृभाषा संस्कृतम्.
श्रोतारः, समुचितरीत्या अवलोकितैः अनेकैः संस्कृतजगतः विषयैः सह आयाति अस्माकं सहयोगी पुरुषोत्तमशर्मा. संस्कृतदिग्दर्शनप्रभागे भवन्तः सर्वे शृण्वन्ति संस्कृतस्य नानाविधकार्यक्रमान्. आगच्छन्तु तर्हि मिलित्वा शृणुमो वयम् एनं प्रभागम्.
मार्च मासस्य अष्टाविंशे ऊनत्रिंशे च दिने केन्द्रीय संस्कृत विश्वविद्यालयस्य भोपाल परिसरे द्विदिवसीय राष्ट्रिय संगोष्ठी समायोजिता. अस्यां संगोष्ठ्यां भारतीय परम्परासु अनुसन्धान प्रक्रिया इति विषये विमर्शो विधीयते. श्रीलाल बहादुर शास्त्री राष्ट्रीय संस्कृत विश्वविद्यालयस्य महिलाध्ययन केन्द्रेण विशिष्ट व्याख्यानमाला आयोजिता. गुरुवासरे आयोजितायां व्याख्यानमालायां स्वास्थ्य संरक्षणे आयुर्वेदस्य भूमिका, वैद्येन सुशील वैद्येन विस्तरेण उपस्थापिता। संस्कृत विभागः दिल्ली विश्वविद्यालयः, केन्द्रीय संस्कृत विश्वविद्यालयः, नवदेहली संस्कृत भारती देहली प्रान्तः इत्येताभिः संस्थाभिः संस्कृत प्रशिक्षण वर्गः आयोजितः। अस्य संस्कृत प्रशिक्षण वर्गस्य समापनं शुक्रवासरे मार्च मासस्य 28 दिने अभवत्। श्रीलाल बहादुर शास्त्री राष्ट्रीय संस्कृत विश्वविद्यालये मार्च मासस्य 28 दिने छात्र परिषदः निर्वाचनाय मतदानं सञ्जातम्। मतदाने विश्वविद्यालयस्य छात्रैः सोत्साहं प्रतिभागिता कृता।
प्रियाः सुहृदबालाः, भवतां समेषां प्रियशिक्षिका अस्मदीया सहयोगिनी च साधना शर्मा भवतां कृते प्रस्तौति बालवल्लरी प्रभागान्तर्गतं प्रकृति सम्बद्धां कथाम् एकाम्। ज्ञानाभिवर्धनाय कृपया भवन्तः सर्वे अवधानेन शृण्वन्तु।
बालाः, कः मासः? मार्च मासः, अर्थात् प्रकृत्या सह जीवनस्य मासः। अद्य अहं प्रकृत्या सह सौहार्दस्य महत्त्वम् इति विषये कथां कथयामि। कस्मिंश्चित् ग्रामे वनस्य समीपे एकः कृषकः निवसति स्म। सः न केवलं कृषिकर्मणि प्रवृत्तः आसीत्, अपि तु वृक्षान् रोपयति, जलाशयान् रक्षयति च। सः प्रकृतेः प्रियः आसीत्। एकदा तस्य पुत्रः अवदत्, जनक, किं कारणं यत् भवान् एवम् अधिकं वृक्षान् रोपयति? ते न किञ्चित् अपि फलयन्ति? कृषकः स्मितं कृत्वा अवदत्, वत्स, प्रकृत्या सह सौहार्दं जीवनस्य आधारः अस्ति। यदि वृक्षाः न स्युः तर्हि वर्षा न भविष्यति, मृदा स्थिरा न भविष्यति, वयम् अपि सुखेन जीवितुं शक्ताः न भविष्यामः। एतस्मिन्नेव समये प्रचण्डः वातः जातः, वर्षा अपि प्रवृत्ता। ग्रामस्य अन्ये कृषकाः जलप्रवाहेन क्षतिं प्राप्तवन्तः, किन्तु यत्र वृक्षाः अधिकाः आसन् तत्र स्थिरता जाता। तदा कृषकस्य पुत्रः अवदत्, जनक, अहम् अधुनैव जानामि यत् प्रकृत्या सह सौहार्दं कियत् महत्त्वपूर्णम् अस्ति। कृषकः सन्तुष्टः जातः, तस्य पुत्रः प्रकृतेः रक्षणं कर्तुम् आरब्धवान्।
प्रियाः श्रोतारः, भाषागत ऐक्यभावम् एक भारतम् श्रेष्ठम् भारतमिति प्रभागे अनेकानि वाक्यानि सूत्रेण बध्नाति एषः अस्माकम् सहभागी। आयान्तु मिलित्वा शृणुमो वयम् एनम् प्रभागम्।
धैर्यवान व्यक्ति न्याय के पथ से एक कदम भी विचलित नहीं होते हैं। हिंदी। न्यायात् पथः प्रविचलन्ति पदम् न धीराः। संस्कृत। धीरज धरावनार मानस क्यारे न्यायना मार्ग थी एक डगलू पण हटतो नथी। गुजराती। धैर्यशील व्यक्ति न्यायर पथ थेके एक कदमो विच्युत होय ना। बांग्ला। धीरज वाला इंसान कदे भी नियम उसूलां दी राह तो एक कदम भी हटता नहीं। पंजाबी। जिस व्यक्ति के विचार शुद्ध नहीं है उसका सब कुछ निरर्थक हो जाता है। हिंदी। सर्वमेव वृथा तस्य यस्य शुद्धम न मानसम। संस्कृत। जे व्यक्तिना विचारो शुद्ध नथी तेना माटे बधुज अर्थहीन बनी जाय छे। गुजराती। जे व्यक्तिर मानस शुद्ध नोय तार काछे सब किछुई अर्थहीन होय पड़े। बांग्ला। जिस इंसान दे विचार शुद्ध नहीं हुंदे उस लई सब कुछ अर्थहीन हो जांदा है। पंजाबी।
श्रोतारः, गमनात् पूर्वम् अहम् एकां सूचनां प्रख्यापयिष्यामि यत् भवन्तः सर्वे स्वविचारान् अस्मभ्यं निःसङ्कोचेन प्रेषयन्तु कृपया। अनेन सहैव नवसंवत्सरस्य सर्वेभ्यः मङ्गलवचनानि। अयं हि नवसंवत्सरः भवतां जीवने नवीनताम् ऊर्जाम् आनयिष्यति। भवन्तः नवीनवर्षसम्बद्धान् स्वक्रियाकलापान् nsdsanskrit@gmail.com इत्यत्र सम्प्रेषयन्तु। नमो नमः। जयतु संस्कृतं, जयतु भारतम्।